सजानश्चित्र अभुवदूते सदा व्रतः सखा कया शचिष्ठया व्रता कस्त्वा सत्यो मदानां मम हृष्ठा मत्सदन्धसः दृढा चिदारुजेवसो अभेषुणः सखे नाम पिता जरितॄणाम् शतम् भवास्योदिभिः अभेन आपवृत्स्वचक्रन्न वृत्तमर्वतः निजद्भ्यश्चर्षणीनाम् प्रवता हि क्रतो नामाः पदेव गच्छसि अभक्ष्यसोर्ये स च संयत्त इन्द्रमन्यभः सञ्चक्राणि दधन्विरे अधत्वे अधसोर्ये उतस्माहित्वा माहुरन्मघवानं शचेपते दातारमभिदेधयम् उतस्मा सद्य इत्परिशशमानाय सुन्वते पुरोचिन्मं हसेवसो न हिष्मा ते शतम् च नराधो वरन्त आमुराः न चोत्नानि करिष्यतः अस्मां कवन्तु ते शतमस्मान् सहस्रमूतयाः अस्मान् विश्वा अभिष्टयः अस्मां इहावृणेष्व सख्याय स्वस्तये महोराजे दिवित्मते अस्मां कविड्डि विश्वहेन्द्र राजा परेण सा अस्मान् विश्वा अभिरोतिभिः अस्मभ्यन्तां कपावृधिव्रजां अस्ते भगोमतः नवाभिरिन्द्रोतिभिः अस्माकम् दृष्टया रथोऽद्यमाम् इन्द्रानपच्युतः गव्युरश्वयुरीयते अस्माकमुत्तमम् कृधिश्रवो देवेषु सूर्य वरिषिष्ठन्द्यामिवोपरि